ಗುಂಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ಜ್ಯೋತಿಭಿಸ್ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀಮತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತೈಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತೈಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾ ನೋ ರುದ್ರಮೃಳಯ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾ ನತ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಕಶೀ ಯಾಮಿಷಂ ಗಿರಿಶಂ ನಹಸ್ತೆ ವಿವಶ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರದಾ ಗುರುಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯದಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗಂ ಸುಮನ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋ ವಿಷಕ ಅಯೇಕಶ್ಚ ಸರ್ವಾಂಬಯನ್ ಸರ್ವಾಸ್ತಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮೃಃ ಅರುಣ ಉತ ವಪ್ರಸ್ವ ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಇವಹೇ ಅಸಭ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈರಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮುಂಚ ಸನ್ವನಸ್ತ್ವಉಪಯೋರಾದ್ಯೋಜ್ಯಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತೈಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯಖಲುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾ ನಾಮುಗ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನುಕ್ಕ ಪರ್ನಿರೋ ವಿಶಲ್ಯ ಬಾಣವಾಗುಂ ಉದ ಅನೇಶನ್ನ ಶೇಷವ ಆವುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೇ ಹೇತಿರ್ಮೀರುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾ ಸ್ವಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇ ಉಮಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತ ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುದಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿಲೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ हिरण्यबाहवे तेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सत्पिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बभ्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतयौषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवेदाय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिना व्याधिनीनाम् पतये नमो नमः ककुबाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो शिवद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च मो नमो नम आतन्वानेभ्यः प्रतिरथानेभ्यश्च मो नमो नम आयच्छद्भ्यो विसृजभ्यश्च मो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च मो नमो नम आसीनेभ्यः शयानेभ्यश्च मो नमो नम स्वमद्भ्यो जाग्रभ्यश्च मो नमो नम तिष्ठद्भ्यो दावभ्यश्च मो नमो नम सभाभ्यः सभापतिभ्यश्च मो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च मो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च मो नमो नम उगणाभ्यः त्रिगुंहतेभ्यश्च मो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च मो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च मो नमो नमो गणेभ्यो गणपतिभ्यश्च मो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च मो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च मो नमो नमो रथेभ्यो रथेभ्यश्च मो नमो नमो रथेभ्यो रथपतिभ्यश्च मो नमो नमः सेनाभ्यः सेनानिभ्यश्च मो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च मो नमो नमः रक्षद्भ्यो रथकारेभ्यश्च मो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च मो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च नमो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च नमो 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 मृगयोभ्यश्वरेभ्यश्च नमो नमो नम श्वभ्यश्वपदेभ्यश्च नमो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो भीडुष्टमाय चेशुभते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्रियाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्ध्याय च वत्सन्याय च नमः श्रोतस्याय च नेत्राय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोम्याय च प्रतिसन्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वविन्दते च नमो वल्मिने च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्तभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो धूताय च प्रयिताय च नमो निषङ्गिणे चेष्वधिवते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोध्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐत्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्खाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च कुल्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शस्याय च वेन्याय च नमः सिकत्याय च प्रवाक्याय च నమ ఇరిన్యాయ చ ప్రవత్యాయ చ నమః కేగుం శిలాయ చ క్షయరాయ చ నమః కవర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కార్యాయ చ గవరేశాయ చ నమో హృదయాయ చ నివేశ్యాయ చ నమః పాగుం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః
ఊర్వ్యాయ చ సోమ్యాయ చ నమః పర్ణ్యాయ చ వర్ణశక్త్యాయ చ నమో
పగురమానాయ చ విఘ్నతే చ నమః ఆఖిలతే చ ప్రఖిలతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వక్కేభ్యో నమః ఆనిర్హతేభ్యో నమః ఆమీవక్కేభ్యః ద్రావే అంధసస్పతే దరిద్రన్నీలలోహిత ఏషాం పురుషాణామేషాం పశూనాం మామేర్మారోమో ఏషాం కించన మమత్ యాతే రుంద్ర శివా తనో శివా విశ్వాభేషజే శివా రుద్రస్య భేషజే తయానో మృణజీవసే ఇమాగుం రుద్రాయ తవసే కవన్నే క్షయద్వేయాయ ప్రవరావహే మతిం యథా నశ్రవసద్విపదే చతుష్పదే విశ్వం పుష్టం రామే అస్మిన్ననాతురం మృడానో రుద్రోదనో మయస్కృతి క్షయద్వేయాయ నమసా విదేమతే యచ్చం చయోశ్చ మనురాయజే పితా తదశ్యామతవ రుద్ర ప్రణీతో మానో మాంతముత మానో అర్హకం మాన ఉక్షంతముత మాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిషః మానస్తోకే తనయే మాన ఆయుషి మానో ఘోషు మానో అశ్వేశ్వరీరిషః వేరాన్ మానో రుద్రవామితో వదే హవిష్మంతో నమసా విదేవతే ఆరాత్రే గోఘ్రౌతమోరుషన్నే క్షయద్వేరాయ సుం నమస్మేతే అస్తో రక్షాచను అధిచ దేవ ప్రోయదాచ నశర్మయచ్చ విమర్హా స్తుహి శ్రుతం దత్త సదయువానం మృగన్న భీమముపహత్వముక్రం ప్రణాజరిత్రే రుద్రస్తవాను అన్యంతే అస్మన్నివమంతు సేనా పరిణో రుద్రస్య హేతే వృణక్తుమరిత్వేషస్య దుర్మతిరధాయో అవస్థిరా భగవద్భ్యస్తనుష్మీభస్తోకాయతనయాయ మృణయ వేణుష్టమశివతమశివో న సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వసాన ఆచర వినాకం విప్రదాగహే వికిరిన విలోభిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్సన్నివ పంతుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవ పరాచీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్మాని తన్మసే अस्मिन् मात्यर्नवेन्दरिक्षे भव अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षवाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोरिताः ये भूतानामधिपतयो विशिकासक्कवण्डिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पताम्बतिरक्षय ऐलवृदायभ्युदः ये तीर्थानि प्रचरन्ति सुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये इन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षविषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् वो जम्भे ददामि त्र्यम्बकैयामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयवामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् आशा मृत्योर्मत्यायहन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तव सुयश्वशत्सुदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो देवमसुरम् धुवस्य अयम् मे अस्तौ भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववे सयोयगुम् शिवाभिमर्शनः शान्ति 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 ॐ अग्ना विष्णो सजोषसे वा वर्धन्तु वाङ्गिरः जुम्नैर्वाजे भिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पालश्च मे व्यालश्च मे स्वश्च मे चित्तम् च आदितम् च मे वा च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोपुंसि च मे शरीराणि च मे ജൈഷ്ട്യം ച മഹാധിപത്യം ച മേ മന്യുശ്ച മേ ഭാമശ്ച മേ ഭശ്ച മേ ഭശ്ച മേ ജയവാച മേ ഭരിവാച മേ ഭരിവാച മേ പ്രതിവാച മേ വശ്വാച മേ ദ്രാഘുരാച മേ വൃദ്ധം ച മേ വൃദ്ധശ്ച മേ സത്യം ച മേ ശ്രദ്ധാ ച മേ ജഗച്ച മേ ധനം ച മേ വശശ്ച മേ ത്വശ്ച മേ ക്രീഡാ ച മേ മോദശ്ച മേ ജാതം ച മേ ജനിഷ്യമാനം ച മേ സോക്തം ച മേ സുഹൃതം ച മേ വിത്തം ച മേ വേദ്യം ച മേ ഭൂതം ച മേ ഭവിഷ്യച്ച മേ സുഖം ച മേ സുപദം ച മരുദ്ധം ച മരുദ്ധശ്ച മേ ക്ലുപ്തം ച മേ ക്ലുപ്തശ്ച മേ മതിശ്ച മേ സുമതിശ്ച മേ ശ്വസം ച മേ മയശ്ച മേ പ്രിയം ച മേ നു കാമശ്ച മേ കാമശ്ച മേ സൗമനസശ്ച മേ ഭദ്രം ച മേ ശ്രേയശ്ച മേ വശ്യശ്ച മേ യശശ്ച മേ ഭഗശ്ച മേ ദ്രവിണം ച മേ യന്താ ച മേ ധത്താ ച മേ ക്ഷേമശ്ച മേ ധൃതിശ്ച മേ വിശ്വം ച മേ മഹശ്ച മേ സംവിച്ച മേ ധ്യാത്രം ച മേ സോശ്ച മേ പ്രസോശ്ച മേ സ്ഥിരം ച മേ ലയശ്ച മരുതം ച മേ മൃതം ച മേ ലക്ഷ്മം ച മേ നാമയച്ച മേ ജീവാദുശ്ച മേ ദീർഘായുത്വം ച മേ നമിത്വം ച മേ ഭയം ച മേ സുഖം ച മേ ശയനം ച മേ സോഷാ ച മേ സുതിരം ച മേ ഊർജ്ജ മേ സോനൃതാ ച മേ പയശ്ച മേ രസശ്ച മേ ഘൃതം ച മേ മധു ച മേ സദ്ഭ്യശ്ച മേ സവേതശ്ച മേ കൃശശ്ച മേ ഭ്രഷ്ടശ്ച മേ ജൈത്രം ച മഔദ്ധിത്യം ച മേ രയശ്ച മേ ദ്രായശ്ച മേ പുഷ്ടം ച മേ പുഷ്ടശ്ച മേ വിഭു ച മേ പ്രഭു ച മേ ഭവു ച മേ ഭൂയശ്ച മേ പൂർണം ച മേ പൂർണതരം ച മേ ക്ഷിതിശ്ച മേ കോയവാച്ച മേ നം ച മേ ക്ഷുച്ച മേ വ്രീഹയശ്ച മേ യവാച്ച മേ മാഷാച്ച മേ തിരാച്ച മേ മുക്താച്ച മേ കൽവാച്ച മേ ഗോധൂമാ മസുരാശ്ച മേ പ്രിയങ്കവശ്ച മേ നവശ്ച മേ ശ്യാമാകാശ്ച മേ നിവാരാശ്ച മേ അശ്വാച മേ മൃത്തികാച മേ ഗിരയശ്ച മേ പർവതാശ്ച മേ സികതാശ്ച മേ വനസ്പതയശ്ച മേ ഹിരണ്യം ച മേ യശ്ച മേ ശേഷം ച മേ ത്രപുശ്ച മേ ശ്യാമം ച മേ ലോഹം ച മേ അഗ്നിശ്ച വാപശ്ച മേ വേരുധശ്ച ഔഷധയശ്ച മേ കൃഷ്ടമച്ഛം ച മേ കൃഷ്ടമച്ഛം ച മേ ഗ്രാമ്യാശ്ച മേ പശവാരണ്യാശ്ച യജ്ഞേന കൽപന്താം വിത്തം ച മേ വിത്തിശ്ച മേ ഭൂതം ച മേ ഭൂതിശ്ച മേ വസു ച മേ വസതിശ്ച മേ കർമ്മ ച മേ ശക്തിശ്ച മേ അർത്ഥശ്ച മേമശ്ച മയിതിശ്ച മേ ഗതിശ്ച മേ അഗ്നിശ്ച മഹേന്ദ്രശ്ച മേ സോമശ്ച മഹേന്ദ്രശ്ച മേ സവിതാ ച മഹേന്ദ്രശ്ച മേ സരസ്വതീ ച മഹേന്ദ്രശ്ച മേ പൂഷാ ച മഹേന്ദ്രശ്ച മേ ബൃഹസ്പതിശ്ച മഹേന്ദ്രശ്ച മേ മിത്രശ്ച മഹേന്ദ്രശ്ച മേ വരുണശ്ച മഹേന്ദ്രശ്ച മേ ത്വഷ്ടാ ച മഹേന്ദ്രശ്ച മേ ധാതാ ച म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेश्वरौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च मेन्द्रक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म अग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे त्रिग्राह्याश्च म ऐन्द्राग्रश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौ ष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इन्वश्च मे बलिश्च मे वेदिश्च मे दिष्टयाश्च मे सुजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे निषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतवृक्ष म आतवनीयश्च म आग्नेयम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पशताश्च मे व्रतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्र दृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाश्च मे दित्यौरे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च म उक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वाच्च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पता चक्षुर्यज्ञेन कल्पता श्रोत्रयज्ञेन कल्पता मनो यज्ञेन कल्पता वाग्यज्ञेन कल्पता आत्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पता एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश दश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे ष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे शत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च भिजश्च क्रतुश्च शुभश्च मूर्धा च व्यस्तयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च देवोन्मनुर्यज्ञने बृहस्पतिरुक्ता मदानिशगुं त्रिषद्विश्वे देवासोत्तमा च प्रतिविवातर्मागुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाचमध्यासगुंशश्रौषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरोनुमदन्तु शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कर्मेण यमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुं राजा अप्येषागस्तपतिर्हतः अथो भाताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहना वद्या श्रुतस्यः विशो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् खन्मसि ॐ शान्ति शान्ति शान्तिः ॐ योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रबाबा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा यो वायतनम् वेद आयतनमान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेदा आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद यो वायतनं वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो शतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुशतपत आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति यापो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद यो सुनामम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाय प्रसय्यसाहिने नमो वयम् वै श्रवणाय कुर्महे सवे कामान् काभकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दि प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात्। वज्रनखाय विद्महे तीक्ष्णदग्ष्ट्राय धीमहे तन्नो नारसिगुम्ह प्रचोदयात्। भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्य प्रचोदयात्। वैश्वानराय विद्महे नारीराय धीमहि तन्नो अग्नि प्रचोदयात्। कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात्। ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्ति।